अथ श्री विष्णु सहस्रनाम स्तोत्रम् यस्य स्मरण मात्रेण जन्म संसार बंधनात् विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे नमः समस्त भूतानां आदिभूताय भूभृते अनेक रूप रूपाय विष्णवे प्रभ विष्णवे श्रीवैशंपायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः युधिष्ठिरः शान्तनवम् पुनरेवाभ्यभाषत श्रीयुधिष्ठिर उवाच किमेकम् दैवतम् लोके किं वाप्येकम् परायणम् स्तुवन्तः कङ्कमर्चन्तः प्राप्नुयुर्मानवा शुभम् को धर्मः सर्वधर्माणाम् भवतः परमो मतः किं जपन्मुच्यते जन्तुः जन्म संसार बन्धना श्रीभीष्म उवाच जगत्प्रभुम् देवदेवम् अनन्तम् पुरुषोत्तमम् स्तुवन्नाम सहस्रेण पुरुषस्त ततोत्थिता तमेव चाचयन् नित्यम् भक्त्या पुरुषमव्ययम् ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च
अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् लोकाध्यक्षम् स्तुवन्नित्यम् सर्वदुःखातिगो भवेत् ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् तवैरर्चेन्दरः सदा परमम् यो महत्तेजः परमम् यो महत्तपः परमम् यो महद्ब्रह्म परमम् यः परायणम् पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् यो व्ययः पिता
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रलयम् यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मना ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॐ विश्वम् विष्णुर्वशत्कारो भूतभव्यभवत्प्रभु भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानाम् परमागति अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च
योगो योगविदाम् नेता प्रधानः पुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः सर्वः शिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महात्मनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेशः पद्मनाभोमरप्रभु विश्वकर्मा मनुस्पष्टा हविष्ठः हविरो ध्रुवः अग्रायः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रम् मङ्गलम् परम्
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापति हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराघर्षः कृतज्ञः कृतिरात्मवान् सुरेश शरणं शर्म विश्वरेता प्रजा भव अह संवत्सरो व्याल प्रत्यय सर्वदर्शन अज सर्वेश्वर सिद्ध सिद्धि सर्वाधिरच्युत वृषा कपिरमेयात्मा सर्वयोग विनिसृत वसुर्वसुमना सत्य समात्मा सम्मित सम अमोघ पुंडरीकाक्षो वृषकर्मा वृषाकृति
रुद्रो बहुशिरा बभ्रू विश्वयोनि श्रुतिश्रवा अमृत शाश्वत स्थाणु वरारोहो महातपा सर्वग सर्वविद्भानु विश्वक्सेनो जनार्दन वेदो वेदविदव्यंगो वेदांगो वेदविद्कवि लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूह चतुर्दंशः चतुर्भुजः भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसु उपेन्द्रो वामनः प्रांशुः अमोघः श्रुतिरूर्जितः अतीन्द्रः संग्रहः सर्वो धृतात्मा नियमो यमः
वेद्यो वैद्यस्तदा योगी वीरः माधवो मधु अतीन्द्रियो महामाय महोत्साहो महाबल महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति अनिर्देश वपु श्रीमान् अमेयात्मा महादृदु महेश्वासो महिर्भर्ता श्रीनिवास सतां गति अनिरुद्ध सुरानन्दो गोविन्दो गोविदांपति मरीचिर्दमनो हंस सुपर्णो भुजगोत्तम हिरण्यनाभ सुतपा पद्मनाभ प्रजापति अमृत्यु सर्वद्रक्सिंह संधाता संधिमान् शिरः अजो दुर्मर्शनः शास्ता विश्रुतात्मा सुरारिह
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषः सृग्वी वाचस्पतिरुदारधिः अग्रणीर्ग्रामणिः श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृत्तात्मा संवृतः संसमर्दनः अहः संवर्तको वह्नी अनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वदृग् विश्वभुग् विभुः सत्कर्ता सत्कृतः साधुः झन्नुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टः शिष्टकृत् शुचिः सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषा हि वृषभो विष्णुः वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसु नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः हृद्यः स्पष्टाक्षरो मन्त्रः चन्द्रांशुर्भास्करद्युति अमृतांशुद्भवो भानु शशबिन्दुः सुरेश्वर औषधम् जगतः सेतु सत्यधर्म पराक्रम भूतभव्यभवन्नाथ पवनः पावनो नलः कामः कामकृत्तान्त कामः कामप्रदः प्रभु
युगादि कृद्युगावर्त नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्राजिदनन्तदिप् इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतः प्रकृतः प्राणः प्राणदो वासवानुजः अपां निधिरधिष्ठानम् अप्रमत्तः प्रतिष्ठितः कन्दः कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुः आदिदेवः पुरन्दरः अशोकस्तारणस्तारः शू ज्ञानेश्वरा।